జిగుంహవామహి కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆరశృణ్వన్ నోదిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిః వాజినీవతీ ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముదతే నమః. యాత ఇషు శివతమా శివం బభూవతే ధనుః. శివాచ రవ్యాయాతవతయానో రుద్రమృడయా. యాతే రుద్ర శివాత్తనూరఘోరా పాపకాశినీ. తయానస్తను వాశంతమయా గిరిశంతాపి చాకశీ. యామిషుం గిరిశంతహస్తే బిభర్షస్తవే. శివాం గిరిత్రతాం కురు మాహిగుంసి పురుషం జగతే. శివేన వచసా త్వా గిరిశాచ్ఛావదామసి. యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్. అధ్యవోచదరి వక్తా ప్రథమో దైవ్యోభిషక్. అహీగస్య సర్వాంజం భయం సర్వాశ్రయాతు ధాన్యః. అసోయస్తామ్రో అరుణ ఉత బభ్రుః సుమంగళః. యే చేమాగుం రుద్రా అభితో దిక్షశ్రుతా సహస్రశో వైశాగుం హేళ ఈమహే. అసవ్యో వసత్పతినీలగ్రీవో విలోహితః. ఉదైనం గోపా అదృశన్నదృశన్నుదహార్యః. ఉదైనం విశ్వాభూతాని సదృష్టో మృణయాదినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే. అథో యే అస్య సత్వానోహం తేభ్యో కరన్నమః. ప్రముంచ ధన్వనస్త్వముభయోరాగ్నియోర్జాం. యాస్య దేహస్త ఇషవ పరాతా భగవో వప. అవతత్య ధనుస్త్వగుం సహస్రాక్షశదేషుధే. నిషీర్య శల్యానాముకా శివో నః సుమనా భవ. విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉదా. అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః. యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్విశ్వతస్త్వమయక్ష్మయా పరిభుజ. నమస్తే అస్త్వాయుధాయానాదతాయ దృష్ణవే. ఉభాభ్యాముదతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్పింజరాయ త్విషీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినేనానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తథావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ సపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్నీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శృగావిభ్యో జిగాగుంసద్భ్యో ముష్ణతాం పతయే నమో నమో సిమద్భ్యో నక్తం చరభ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్యః ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమస్తిష్టభ్యో లావభ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతి భ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగం హదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదేభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపదేభ్యశ్చ వో నమో నమో గణేభ్యో గణపదేభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథేభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః క్షత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శృతికంఠాయ చ నమః कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्नियाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः शवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्धते च नमो वल्मिने च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युद्याय च नमः इन्द्रियाय च तप्याय च नमो वाक्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च वेण्याय च नमः त्रिगत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ओर्व्याय च सोर्व्याय च नम पर्ण्याय च पर्णशज्ञाय च नमो पगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्किनिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धदस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्च नाम मत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यमस द्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृळानो रुद्रोदनो मयस्कृत क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय जे पिता तदश्यामतव रुद्र प्रणीतो मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्रनीलिशः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु नीलिशः वीरान्मानो रुद्रभामिदो वदेर्हविष्मन्तो नमसा विधेमते आराते गो न उत पोरुषग्ने क्षयद्वीराय सुन्नमस्मे ते अस्तु रक्षाचनो अरि च देव ब्रूह्यदा च न शर्म यच्च विवर्हा सुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्वृणत्तु परिक्लेशस्य दुर्मदिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीरुस्तोकायतनयाय मृडया मीरुष्टमशिवदमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्ति वसा न आचर पिनाकम् बिभ्रदागहे विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रदा बाहोस्तव हेतयः ताचामीशानो भगव पराचीनामुखा कृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेन्दरिक्षे भवा अरे नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पदाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शृकावन्तो निषङ्गिणः एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिष वस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् द्विष्मो यश्च नो द्वेष्टितम् वोजम् मे ददामि त्रिम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो आप्सु य ओषधेषु यो रुद्रो विश्व भुवनादिवेशदस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशार्मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्याय स्वा नमो रुद्राय विष्णवे प्रत्यर्मे पाहि तमुष्टु ह्यः सुषुसुदन्वायो विश्वस्य क्षयदिवे रजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगु शिवाभिवर्षणः ॐ शान्ति 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 ॐ अग्नाविष्णो सजोषसेवावर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रहृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च आधीतम् च मे वाच मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहश्च आयुश्च मे जरा च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे त्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे लोकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्दा च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे रसोऽश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्छ मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे शोषा च मे सुदिनम् च मे ओर्च मे सोढृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्धिश्च मे सवेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे वेरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मोधा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाव्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतो ग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदश्च मे दृष्टिराश्च मे सृजश्च मे चमसाश्च मे श्रवाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोधवृक्ष म आधवनीयश्च म आग्नेयं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचदाश्च मे वबृदश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मे अर्कश्च मे सौर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पं तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे द्वित्यवाच्च मे द्वित्यौरी च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवचाच्च मे तुर्यवाच्च मे तुर्यौरी च मे पष्ठवाच्च मे पष्ठौरी च मभुक्षा च मे वशा च मृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंशच्च मे शत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रथवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनस्यान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि सगुंसिषद्विश्वे देवासोऽष्टवाच पृथिवीमा धर्मा माहिगुंसिर्मधुहनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् वा देव अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶರಣೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಸಹಸ್ರಶೀರ್ಷಾ ಪುರುಷಃ ಸಹಸ್ರಾಕ್ಷ ಸಹಸ್ರಪಾದ ಸಭೂಮಿಂ ವಿಶ್ವತೋ ವೃತ್ವಾ ಅತ್ಯತಿಷ್ಠದ್ ದಶಾಂಗುಲಂ ಪುರುಷ ಏವೇದಗುಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಉತಾಮೃತತ್ವಸ್ಯೇಷಾನಃ ಯದನ್ನೇನಾತಿರೋಹತಿ ಏತಾವಾನಸ್ಯ ಮಹಿಮಾ ಅಥೋ ಜ್ಯಾಯಾಗಶ್ಚ ಪುರುಷಃ ಪಾದೋಸ್ಯ ವಿಶ್ವಾಭೂತಾನಿ ತ್ರಿಪಾದಸ್ಯಾಮೃತಂ ದಿವಿ ತ್ರಿಪಾದೋರ್ಧ್ವಉದಯತ್ ಪುರುಷಃ ಪಾದೋಸ್ಯೇಹಾ ಭವಾತ್ ಪುನಃ ತತೋ ವಿಶ್ವಂ ವ್ಯಕ್ರಾಮತ್ ಸಾಶನಾನಶನೆ ಅಭಿ ತಸ್ಮಾದ್ ವಿರಾಡ ಜಾಯತ ವಿರಾಜೋ ಅಭಿ ಪುರುಷಃ ಸ ಜಾತೋ ಅತ್ಯರಿಚ್ಯತ ಪಶ್ಚಾತ್ ಭೂಮಿಮಥೋ ಪುರಃ ಯತ್ಪುರುಷೇಣ ಹವಿಷಾ ದೇವಾಯಜ್ಞಮತನ್ವತ ವಸಂತೋ ಅಸ್ಯಾಸೀದಾಜ್ಯಂ ಗ್ರೀಷ್ಮಯಿದ್ಮ ಶರದ್ಧವಿ ಸಪ್ತಾಸ್ಯಾಸನ್ ಪರಿದಯಃ ತ್ರಿಸಪ್ತ ಸಮಿದ ಕೃತಾಃ ದೇವಾಯಜ್ಞಂತನ್ವಾನಾಃ ಅಭದ್ರಂ ಪುರುಷಂ ಪಶುಂ ತಂ ಯಜ್ಞಂ ಬರ್ಹಿಷಿ ಪ್ರೋಕ್ಷನ್ನ ಪುರುಷಂ ಜಾತಮಗ್ರದಃ ತೇನ ದೇವಾ ಅಯಜಂತ ಸಾಧ್ಯಾರ್ಷಯಶ್ಚ ಯೇ ತಸ್ಮಾತ್ ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಸಂಹೃತಂ ಪೃಷದಾರ್ಜ್ಯಂ ಪಶುಗುಸ್ತಾಗುಶ್ಚಕ್ರೇ ವಾಯವ್ಯಾನ ಆರಣ್ಯಾನ್ ಗ್ರಾಮ್ಯಾಶ್ಚ ಯೇ ತಸ್ಮಾತ್ ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಋಷಸಾಮಾನಿ ಜಗ್ನಿರೆ ಛಂದಾಗುಂಸಿ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ಯಜುಸ್ತಸ್ಮಾತ್ ಅಜಾಯತ ತಸ್ಮಾದಶ್ವ ಅಜಾಯಂತ ಏಕೇಚೋ ಭಯಾದತಃ ಗಾವೋಹ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ತಸ್ಮಾಜ್ಜಾತ ಅಜಾವಯಃ ಯತ್ಪುರುಷಂ ವ್ಯದದುಃ ಕಥಿತಾ ವ್ಯಕಲ್ಪಯನ್ ಮುಖಂ ಕಿಮಸ್ಯ ಕೌ ಬಾಹು ಕಾ ಭೂರು ಪಾದಾವುಚ್ಯೇತೆ ಬ್ರಾಹ್ಮಣೋಸ್ಯ ಮುಖಮಾಸೀತ್ ಬಾಹೋರಾಜನ್ಯಕೃತಃ ಊರು ತದಸ್ಯ ಯದ್ವೈಷ್ಯಃ ಪದ್ಭ್ಯಾಗುಂ ಶೂದ್ರೋ ಅಜಾಯತ ಚಂದ್ರಮಾಮನಸೋ ಜಾತಃ ಚಕ್ಷೋಃ ಸೂರ್ಯೋ ಅಜಾಯತ ಮುಖಾದಿಂದ್ರಶ್ಚಾಗ್ನಿಶ್ಚ ಪ್ರಾಣಾದ್ವಾಯುರಜಾಯತ ನಾಭ್ಯಾ ಆಸೀದಂತರಿಕ್ಷಂ ಶೀರ್ಷ್ಣೋದ್ಯೌ ಸಮವರ್ತತ ಪದ್ಭ್ಯಾಂ ಭೂಮಿರ್ದಿಶ ಶ್ರೋತ್ರಾತ್ ತಥಾ ಲೋಕಾಗುಂ ಅಕಲ್ಪಯನ್ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಸ್ತು ಪಾರೇ ಸರ್ವಾಣಿ ರೂಪಾನಿ ವಿಚಿತ್ಯ ಧೀರಃ ನಾಮಾನಿ ಕೃತ್ವಾಭಿವದನ್ ಯದಾಸ್ತೇ ಘಾತಾ ಪುರಸ್ತಾದ್ಯಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾನಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇಹನಾಕಂ ಮಹಿಮಾನಸ್ಯ ಚಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾ ಸಂತಿ ದೇವಾಃ अद्भ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्च रति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋषाय ब्राह्मणे ऋषम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेष्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः क्रिमीणागुम् राजा अप्येषागुस्तपतिर्हतः अथो मातातो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्सि ॐ शान्ति शान्ति शान्तिः ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्या इळस्पदे समिद्यसे वनो वसून्याभरा सङ्गच्छध्वम् संवदध्वम् संवो मनांसि जानताम् देवाभागम् यथा पूर्वे संज्ञानाना उपासते समानो मन्त्रः समितिः समानि समानम् मनःसः चित्तमेषाम् समानम् मन्त्रमपि मन्त्र एव समानेन वो हविषा जुहोमि समानीव आकोतिः समाना हृदयानि वः समानमस्तु वो मनो यथा वस्तु सहासहि ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् ప్రాతస్సోమముత రుద్రగుంహువేమ ప్రాతర్జితం భగముగ్రగుంహువేమ వయం పుత్రమధితేర్యో విధత్త ఆద్రశ్చిద్యం మన్యమానస్తురశ్చిద్రాజాచిద్యం భగం భక్షేత్యాహ భగ ప్రణేతర్భగ సత్యరాజో భగే మాం దియముదవదదన్నః భగ ప్రణోజన యగోభిరశ్వైర్భగ ప్రణృభిర్నృవంత శ్యామ ఉతేదానీం భగవంత శ్యామోత ప్రపిత్ర ఉత మధ్యే అహ్నా ఉతోదితామగవన్ సూర్యస్య వయం దేవానాగుం సుమతౌ శ్యామ భగ ఏవ భగవాగుం మస్తు దేవాస్తేన వయం భగవంత శ్యామ తం త్వా భగః సర్వ ఇజ్జో హవేమి సనో భగ పుర ఏత భవేహ సమద్వరాయోషసో నమంతదధిక్రావే వసుచయే పదాయ అర్వాచీనం వసువిదం భగన్నోరథ వివాశ్వ వాచిన ఆవహంతు అశ్వావతీర్గోమతీర్న ఉషాసో వీరవతే సదముచ్చంతు భద్రాః ఘృతం దుహానా విశ్వత ప్రపీనా యూయం పాద స్వస్తిభిః సదా నః యో మాగ్నే భాగినగుం సంతమతా భాగం చికీర్షతే అభాగమగ్నేతం కురు మామగ్నే భాగినం కురు ఓం శాంతి 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 ఓం ఆసత్యేన రజసా వర్తమానో నివేశయన్నమృతం మర్త్యం చ హిరణ్యయేన సవితారథేన దేవో యాది భువనాని పశ్యన్ అగ్నిం దూతం వృణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం యేషామీషే పశుపతి పశూనాం చతుష్పదాముత ద్విపదాం నిష్క్రీతోయం యజ్ఞియం భాగమేతురాయ స్పోష యజమానస్య సంతో ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ ఆదిత్యాయ నమః ఓం ఆప్యాయ స్వసమేతు దే విశ్వతః సోమవృష్ణియం భవావాజస్య సంగతే అప్సు మే సోమో అబ్రవీదంతర్విశ్వాని భేషజ అగ్నిం చ విశ్వశంభువమాపశ్చ విశ్వభేషజీ గౌరీమిమాయ సలిలాని తక్షత్యేకపదీ ద్విపదీ సా చతుష్పదీ అష్టాపదీ నవపదీ బభూవుషి సహస్రాక్షరా పరమే వ్యోమన్ ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ సోమాయ నమః ఓం అగ్నిర్మూర్ధ్వా దివః కకుః పతిః పృథివ్యా అయం అపాగుం వేతాగుంసి జిన్వతి శ్యోనా పృథివిభవా రక్షరా నివేశనీ యచ్చానశర్మ సప్రతాః క్షేత్రస్య పతినా వయగుం హితేనేవ జయామసి కామశ్వం పోష ఇత్నవాసనో మృళాతీదృశే ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ అంగారకాయ నమః ఓం ఉద్బుద్ధ్య స్వాగ్నే ప్రతిజాగృహ్ణేన మిష్టా పూర్తిః స్వగుం సుజేతామయం చ పునః కృణ్వగ్రస్వా పితరం యువానమన్వాతాగుం సీత్వయిదంతు మేదం ఇదం విష్ణుర్విచక్రమే త్రేధాని దదే పదం समूढमस्य पागुम् सुरे विष्णो रराटमसि विष्णो पृष्ठमसि विष्णो श्रप्तेष्टो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अभिदेवता प्रत्यभिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अधियधर्यो अर्हाद्युमद्विवादि क्रतुमज्जनेषु यद्दीद यच्छवसर्त प्रजात तदस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यदा शार्याते अपि वस्तुतस्य तव प्रणीते तव शूरशर्मन्नाविवासन्ति कवयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुचो वेन आवः स बुग्निया उपमा अस्य विष्टा सतश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवः शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपोतम् यो देव्यानि मानुषा जनो गुष्यन्तर्विश्वानि विद्मनाजिगाति इन्द्राणि मासुनारिषु सुपत्नी महमश्रवम् न ह्यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परिह वामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभिष्टय आपो भवन्तु प्रीतये शन्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्स्यामपतयोरयेना इमम् यवप्रस्थरमाहि सीदाङ्गिरोभिः पितृभिः संविधानः आ त्वा मन्त्रा कविशस्तावहम् त्वेनाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्र आभुवधूते सथा वृतः सखा कया शतिष्ठया वृता आयङ्गौ पृष्णिरक्रमी दशरन्मातरम् पुनः पितरम् च प्रयंसुवः यत्ते देवे निरृतिराभवन्ददामग्रीवा स्वविचत्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तदा जीव पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे शमुषद्भिरजा यथाः ब्रह्मा देवानाम् पदवीम् कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् शेनो गृद्राणागस्वदितिर्वनानागुम् सोमः पवित्रमत्येतिरेभन् सचित्रचित्रम् चितयम् तमस्मि चित्रक्षत्रचित्रतमम् वयोधा चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्घृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः सरःपर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्ति वैरोचनीम् कर्म फलेषु जुष्टाम् दुर्गाम् देवेगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वी बहुला न उर्वि भवातोकायतनया यशय्योः विश्वानि नो दुर्गः जातवेदः सिन्धुम् नावा दुरितातिपर्षे अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्यविता तनूना पृतनाजितगुंसहमानमुग्रमग्निगुम् हुवेम परमात् सधस्तात् सरःपर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि गमेद्यो अध्वरेषु सनाच्च होता नव्यश्च सत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यञ्जसौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नागस्य पृष्ठमपि संवसानो वैष्णवीन् लोक इह वादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुराततम् तद्विप्रासो विपन्यवो जाग्रवागु सत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् न कर्मणा न प्रजयाधनेन त्यागेनैके अमृतत्वमानशुः परेण कन्निहितम् गुहायाम् विव्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थ सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दक्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमज्जसगुस्तम् तत्रापि दक्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरप्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति। शा